अथ षष्ठः स्कन्धः
अथैकोनविंशोऽध्यायः राजोवाच व्रतम् पुंसवनम् ब्रह्मन् भवता यदुदीरितम् तस्य वेदितुमिच्छामि येन विष्णु प्रसीदति। श्रीशुक उवाच शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया आरभेत व्रतमिदम् सार्वकामिकमादितः निशम्य मरुताम् जन्म ब्राह्मणाननुमन्त्र च स्नात्वा शुक्लदते शुक्ले वसीतालङ्कृताम्बरे पूजयेत् प्रातरासात् प्राग् भगवन्तम् श्रियाशः। अलम् ते निरपेक्षाय पूर्णकाम नमस्तु ते महाविभूतिपतये नमः सकलसिद्धये। यथा त्वम् कृपया भूत्या तेजसा महिनौजसा जुष्ट ईशगुणैः सर्वैस्ततोऽसि भगवान् प्रभु। विष्णुपत्नी महामाये महापुरुषलक्षणे प्रिये था मे महाभागे लोकमातर नमोऽस्तु ते। ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूति विभूतिभिर् बलिमुपहराणि इति अनेन अहह मन्त्रेण विष्णो रावाहन नार्घ्य पाद्योपस्पर्शन स्नान वास उपवीत विभूषण गंध पुष्प धूप दीपोपहारादि उपचारांश्च समाहित उपहरेत्। ओम नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर् बलिमुपहराणि इति अनेन अहर मन्त्रेण विष्णो रावाहनार्घ्यपाद्योपस्पर्शन स्नान वास उपवीत विभूषण गंध पुष्प धूप दीपोपहारादि उपचारांश्च समाहित उपहरेत्। हविः शेषम् तु जुह्याद् अनले द्वादशाहुतिः। ओम् नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहा इति। श्रियम् विष्णुम् च वरदौ आशिषाम् प्रभुवौ उभौ भक्त्या सम्पूजयेद् नित्यम् यदिच्छेत् सर्वसम्पदः। प्रणमेत् दण्डवद्भूमौ भक्ति प्रहवेण चेतसा दशवारम् जपेन मन्त्रम् ततः स्तोत्रमुदीरयेत्। युवाम् तु विश्वस्य विभू जगतः कारणम् परम् इयम् हि प्रकृतिः सूक्ष्मा माया शक्तिर्दुरत्यया तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः। त्वम् सर्वजज्ञ ईजेयम् क्रियेयम् फलभुग् भवान् गुणव्यक्तिरियम् देवी व्यञ्जको गुणभुग् भवान्। त्वम् हि सर्वशरीर्यात्मा श्री शरीरेन्द्रियाशया नामरूपे भगवति प्रत्ययस्त्वमपाश्रयः। यथा जुवाम् त्रिलोकस्य वरदौ परमेष्ठिनौ तथा मौत्तमश्लोका सन्तु सत्या महाशिषः। इत्तभिष्टूय वरदम् श्रीनिवासम् श्रियासः तन्निःसार्योपहरणम् दत्त्वा च मनमर्शयेत् ततस्तु वीतस्तोत्रेण भक्ति प्रहवेण चेतसा यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद् हरिम् पतिम् च परया भक्त्या महापुरुषचेतसा प्रियैस्तैरुपनमेत् प्रेमशीलः स्वयम् पतिः। बिभ्रिया सर्वकर्माणि पत्न्या उच्चावचानि च कृतमेकतरेणापि दम्पत्योरुभयोरपि पत्न्याम् कुर्यादनर्हयाम् पतिरेतत् समाहितः। विष्णोर्व्रतमिदम् बिभ्रन्न विहन्यात् कथञ्चन विप्रान् स्त्रियो वीरवतिः श्रगन्ध बलिमण्डलैः अर्चेद् अहरः भक्त्या देवम् नियमम् आस्थितः। उद्वास्य देवम् स्वेधाम्नि तन्निवेदितमग्रतः अद्यादात्मविशुद्ध्यर्थम् सर्वकामर्धये तथा एतेन पूजाविधिना मासान् द्वादशहायनम्। नित्वा थोपचरेत्साध्वी कार्तिके चरमेहनी स्वभूते पौपस्मिश्य कृष्णमभ्यर्च पूर्ववत् पयाश्रिते न जुहिया चरणा सह सर्पिषा पाक यज्ञ विधानेन द्वादशैवाहुतिः पतिः आशिषः शिरसादाय द्विजैः प्रीतैः समीरितः प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया आचार्यमग्रतः कृत्वा वाग्जतः सह बन्धुभिः दद्यात्पत्न्यै चरोः शेषम् सुप्रजस्त्वम् सुसौभगम् एतच्चरित्वा विधिवद्व्रतम् विभोरभीप्सितार्थम् लभते पुमानिह स्त्रीत्वेत्तदास्थाय लभेत सौभगम् श्रियम् प्रजाम् जीवपतिम् यशो गृहम् कन्या च बिन्देत समग्रलक्षणम् वरम् त्ववीराहत किन्विषा गतिम् मृत प्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम् विन्देत् विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्पदेहम् एतत्पठन्नभ्युदये च कर्मणनन्ततृप्तिः पितृदेवतानाम् तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीहरिश्च राजन्महन्मृतान् जन्म पुण्यम् दितेर्व्रतम् चाभिहितम् महत्ते। इति श्रीमद्भागवते महापुराणे वैशिक्याम् अष्टादशसहस्र्याम् परमहंस्याम् संहितायाम् षष्ठस्कन्धे पुंसवन व्रत कथनम् नाम एकोनविंशोऽध्यायः। इति षष्ठः स्कन्धः समाप्तः। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे।